स्वागतं गतवर्गे वयं विशेषविशेषभावस्य विषये पठितवन्तः अद्य तस्य विषये किञ्चित् पठित्वा वयम् अग्रे गीतासोपानं गच्छामः
भगिनि युवर् वाल्यूम् हेस् गान् बेड् नौ वि चेञ्ज् सम्थिङ्ग्
इदानीं महोदय
बेटर् नौ
क्षम्यताम् अहं अस्तु वयं विशेषणविशेषभावस्य विषये पठितवन्तः इदानीं विशेषणविशेषभावः नाम किम् यादवन् अथवा कोपाल् महोदय
will follow the same case as the visheshyam
tatra
visheshanasya vibhakti visheshasya vibhakti asti
visheshanasya vibhakti lingam एवं
लिङ्गं वचनमेव वचनमेव विभक्ति विशेषस्य लिङ्गं वचनम् अस्ति लिङ्गं वचनं विभक्तिः त्रयमपि
अनुसरति
समानमस्ति
तत्र विशेषणमस्ति चेत् विशेषस्य विभक्तिः लिङ्गं च वचनं स्वीकरोति किल उदाहरणमेकं ददन्तु उदाहरणं भवन्तः कृतवन्तः किल अग्रे पाठयन्ते
मधुरं फलम्
मधुरं फलम् अस्तु
मधुरे फले मधुराणि फलानि
तत्र मधुरं फलं तत्र मधुरम् इति अत्र फलम् इति नपुंसकलिङ्गः एकवचनम् अपि प्रथमविभक्तिः किल तदेव अत्र मधुरम् इति अपि स्वीकरोति एतत् नपुंसकलं अत्र मधुरम् इति विशेषणं फलम् इति विशेषणं किल इदानीम् एतत् एकवचने अस्ति इदानीं द्विवचने किं भवति
फलं फले फलानि मधुरे
मधुरे फले समीचीनम् इदानीं बहुवचनमस्ति चेत्
मधुराणि फलानि
मधुराणि फलानि
समीचीनं मधुराणि फलानि अत्र एतत् सर्वं विशेषणं विशेषणानि विशेषानि अस्तु इदानीं वयं तत्र एतत् प्रथमाविभक्तिः अस्ति किल एतत् सर्वं प्रथमाविभक्तिरूपाणि सन्ति इदानीं द्वितीया विभक्तिः कुर्मः चेत् किं भवति एतद् उदाहरणं न स्वीकुर्मः एतत् प्रथमा
एतत् उदाहरणम् अस्ति चेत् द्वितीयविभक्ति अपि भवति न
तदर्थमेव अहं द्वितीयविभक्तिः एतत् न स्वीकुर्मः इति अस्तु किं वदामः उदाहरणम् आं गोपाल् महोदय भवान् एकं वदतु
वाट् यु वाण्ट् भगिनि
किं महोदय
द्वितीयाविभक्ति
द्वितीयाविभक्ति एवं सेम् अस्ति किल
न एकम् उदाहरणं ददतु
एकम् उदाहरणं रामः मधुरं फलं खादति
न महोदय अत्र वयं राधाभगिनी एकम् उदाहरणम् उक्तवती किल प्रथमाविभक्त्यन्त उदाहरणं तत्र मधुरं फलम् इति विशेषणविशेषभावः अस्ति सामान्यतया द्वितीयाविभक्तिरूपं
यु वाण्ट् आर्डिनरि वन् द्वितीयाविभक्ति भगिनि or for phalam only you want
no different one
I'm telling you to make one
in prathama vibhakti or dvitiya
dvitiya
dvitiya okay
madure
illa da idu ravaha ravo ravo ravam ravo ramana na
madhuya
kiruma ramam raman wait you have to make a ditiya vibhakti
pratamatay ekam visheshyam swikarotu mahodaya भवान् पुल्लिङ्गे करोति वा स्त्रीलिङ्गे करोति वा
पुल्लिङ्गे पुल्लिङ्गमेव करोमि
विशेषं स्वीकरोतु
विश्वामित्रः वीरः बालः रामः यास्ड् asked mean what we will say
na tatra veerah balah iti uktavantila taave tatra veerah
balah ramah
raman ramabhyah ramai
la reading
asto tatra veerah iti visheshanamasti balah yapi visheshanamasti विशेष्यम् अत्र रामः रामः बालः आसीत् रामः एव वीरः आसीत् अस्तु इदानीं द्विवचने किं भवति
द्विवचने वीरौ बालौ रामलक्ष्मणौ
अथवा वीरौ बालौ अत्र रूपाणि वयं पश्यामः अर्थं न पश्यामः वीरौ बालौ रामौ
रामौ
अनन्तरं बहुवचने
वीराः बालाः रामाः
वीराः बालाः रामाः अस्तु समीचीनम् इदानीं तृतीया कुर्मः प्रथमतया एकं विशेषणं स्वीकुर्वन्तु इदानीं वयं स्त्रीलिङ्गं कुर्मः अस्तु स्त्रीलिङ्गे किं विशेषं
दीर्घाय मालाय
वीरः
पुनः पुनः वदतु भगिनि
Pirgaya Malaya.
Mala iti palasya sritiya kila.
Malaya sritiya bhavati.
Ah, samichin. Asa. Danim, Pirgaya iti uttavadiva.
Long garland or long chain? Iti artham asti. Right, Bhagini?
Amam.
This is also Prathama only, Bhagini. Prathama...
No, Tritiya.
Tatra, Mahodya, ek pashyatu, tatra.
This is Pullinga.
Nirga Mala iti asti. Etat Prathama vibhakti.
No, no, what you wrote, that is Prathama only, but Pullinga.
Dvitiya will be V Ramam, Viram Balam Ramam.
Balam.
Prathama,
this one, Pullinga.
Shamitam.
Raman. Ramaha Ramau Ramaha, Ramam Ramau Raman.
That is why I said Vishwamitraha. Viram, Balam, Ramam, Prachavan or something, you know, he asked. Ramah, Ramav, Viram, Balav, Ramav, it is same. Viran, Balan, Raman.
Astu. Idani. Eta Tasti, Vithiya.
Yeah.
Vita Chantanji. Vira, Bala,
Idani. इदानीं तृतीया इदानीं तत्र वयं दीर्घा माला इति उक्तवन्तः किल एतत् प्रथमाविभक्तिः अस्ति अस्तु दीर्घा माला इदानीं तृतीया किमस्ति
दीर्घया मालया
प्रथमास्ति दीर्घया मालया इदानीं तत्र द्विवचनम्
दीर्घाभ्यां मालाभ्यां
दीर्घा माला मीन लॉन्ग गार्लेट बिग गार्लेट
बहुवचन
दीर्घाभिः मालाभिः
अस्तु एवमेव वयम् एतत् तृतीया अस्ति तदनन्तरं चतुर्थी पञ्चमी षष्ठी सप्तमी अपि सम्बोधनं सप्तमी वयं विशेषणविशेषभावे वयं कर्तुं शक्नुमः अस्तु
इदानीं
वयं किञ्चित् गीतासोपाने पश्यामः. भवत्याः पार्श्वे गीतासोपानम् अस्ति वा अथवा अहं स्क्रीन् शाट्
लौड् स्क्रीन् शेर् भगिनि.
अस्तु एकनिमिषं. किञ्चित् अभ्यासं कुर्मः तदनन्तरं गीतासोपानस्य विषये वयं किञ्चित् आरम्भं कुर्मः. इदानीं गीतासोपाने वयं भूतकालं पठामः. अस्तु भूतकालः इदानीं तत्र वयं किं किं क्रियापदस्य विषये वयं किं किं पठितवन्तः. वयं किं किं पठितं वयं लट्लकारः पठितवन्तः, लोट्लकारः पठितवन्तः किल. लट्लकारः वर्तमानकालः, एतं वयं जानीमः एतावत्. लोट्लकारः आज्ञा अथवा प्रार्थना. तत्र किं महोदय
स्क्रीन् शेरिङ्ग् यु आर् डूइङ्ग् भगिनि?
इदानीम् अहं ऐ एम् ओन्ली टाकिङ्ग् महोदय, ऐ एम् नाट् शेरिङ्ग् एनिथिङ्ग्. अस्तु वयं लकारस्य विषये किञ्चित् वयं पठितवन्तः, वयं लट्लकारः पठितवन्तः. वर्तमानकालः अस्ति एतत् एतत् वयं जानीमः, गच्छति पश्यति इति. अनन्तरं वयं लोट्लकारः पठितवन्तः किल, तस्य आज्ञाप्रार्थनारूपम् इति वयं वदामः. तत् आज्ञाप्रार्थना इति वक्तुं शक्नुमः अथवा आदेशात्मकरूपम्, आदेशः इति आदेशात्मकरूपम् इति वदामः. अद्य वयं भूतकालः पठामः. भूतकालः तस्य लकारः अस्ति लङ्लकारः. लङ्लकारः अस्ति भूतकालः. अस्माकं विषयः दशलकाराः किल संस्कृते, दशलकाराः सन्ति. तत्र पञ्चलकाराः लट् लोट् लङ् लट् अपि विधिलिङ्लकारः. वयं किञ्चित् अभ्यासं कृत्वा वयं सौकर्यं भवति चेत् वयं विषयानि वयं वदामः चेत् सौकर्यं भवति. अस्तु विस्लकारः अस्ति भविष्यत्कालः. अस्तु अनन्तरं विधिलिङ्लकारः एतत् भवति, एतत् भवितुम् अर्हति इति वयं वदामः. अस्तु अद्य वयं लङ्लकारः पठामः. अस्तु लङ्लकारः अस्ति भूतकालः. भूतकालः वयं
लट् लोट् विधिलिङ्ग् वाट् एल्स् भगिनि फैव्
लट् लोट् लङ् विधिलिङ्ग् and lit. Asto tatra bhutakalah ekamasham.
Lat lot lang vidiling and lit.
Amo
lat is present, lot is
आदेशात्मक रूपम्
निवेदात्मक. लङ्
इति भूतकालः, लट् इति भविष्यत्कालः. अस्तु अद्य वयं भूतकालं पठामः. अस्तु
भूतकालं पठामः. फास्ट् लङ्लकारः
भूतकालः अस्ति. तत्र एकमस्ति तत्र लङ्लकारः. लङ्लकारः तत्र वयं भूतकाले किमपि वक्तुम् इच्छामः चेत् तत्र विषयद्वयम् अस्ति, एकं लङ्लकारः अस्ति, अन्यत् स्तौतप्रत्ययः. वयं स्तौतप्रत्यय पठितवन्तः किल, अत्र तावतो प्रत्ययः सः स्मरन्ति.
तावतो प्रत्ययः इस् दट् पठितवान्, दट् कैण्ड् आफ् स्टफ् रैट् भगिनि,
पठितवान् इति एकं वाक्यं कर्तुं शक्नुमः. तत्र अत्र गतवान् पठितवान् इति अत्र एकं लकारः अस्ति, एकः प्रत्ययः अस्ति. अत्र भेदः कः?
भेदः लकार अस्ति चेत् क्रियापदस्य रूपम् अस्ति, प्रत्यय अस्ति चेत् द नौन् फार्म् आल्सो विल् गेट् चेञ्ज्ड् इन् टु द तवतो प्रत्यय.
अत्र अहं वदामि, अत्र गतवान् इति तत्र नामपदरूपम्. नामपदरूपमस्ति, क्रियापदस्य नामपदरूपमस्ति. तत्र लङ्लकारः अस्ति चेत् तत्र एकम् उदाहरणम् अगच्छत्,
अगच्छत्
इति अस्ति. अस्तु, अगच्छत् गतवान् भूतकाले एव अस्ति, परन्तु अगच्छत् इति क्रियापदम्. परन्तु गतवान् इति नामपदम्, तत्र एतत् विशेषणमस्ति. वयं गतवर्गे पठितवन्तः किल प्रत्ययाः सन्ति चेत् ते नामपदरूपाणि भवन्ति. अस्तु, तदर्थं गतवान् इति नकारान्तशब्दः, तत्र विशेषणं भवति. अस्तु, तत्र वचनं लिङ्गम् अनुसृत्य भवति. तत्र तावत् प्रत्ययस्य भूतकाले तत्र वयं गतवान् इति वयं वदामः चेत् तत्र वचनं लिङ्गम् अनुसृत्य वदामः, परन्तु तत्र पुरुषः नास्ति, तत्र प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः तत् नास्ति, केवलं वचनम् अपि लिङ्गम्. अस्तु, तत्र
उदाहरणमस्ति चेत् सम्यक् भवति.
सः नगरं गतवान्, नगरं गतवान्. अस्तु, तत्र
तौ नगरं गतवन्तौ, लैक् दट् इट् विल् चेञ्ज्.
न न भगिनि, आम् तत्र इदानीं वयं तत्र मधुरं फलं मधुरे फले इति कृतवन्तः किल, अत्र मधुरे अपि फले सामान्यमस्ति, परन्तु अन्यस्मिन् वाक्ये अस्तु. तत्र गतवान् अत्र सामान्यमस्ति, तौ नगरं गतवन्तौ. अत्र पश्यन्तु, एतत् पुल्लिङ्गः अस्ति किल, तत्र सा नगरं गतवान् इति वक्तुं न शक्नुमः. सा गतवती,
सा नगरं गतवती.
इदानीं सा नगरं गत सा नगरं गतवती इदानीम् एतत् क्रियापदम् आसीत् चेत् गतवती अथवा गतवान् क्रियापदम् आसीत् चेत् एतत् पुल्लिङ्गः अस्ति वा नपुंसकलिङ्गः अस्ति वा स्त्रीलिङ्गः अस्ति वा इति क्रियापदस्य कोऽपि विशेषः नास्ति किल तत्र सः गच्छति इति अस्ति किल सः गच्छति इति अस्ति चेत् गच्छति इत्येव भवति तत्र गच्छति इत्यस्य भेदः न भवति
सः गच्छति सा गच्छति
क्रियापदस्य कोऽपि तत्र कर्तृपदं स्त्रीलिङ्गः अस्ति वा पुल्लिङ्गः अस्ति वा इति क्रियापदस्य क्रियापदं केवलं वचनं पश्यति तत्र सः गतवान् इति अस्ति चेत् गतवान् इति नामपदं भवति किमर्थं तत्र लिङ्गः पश्यति एतत् तत्र सः इत्यस्य पुल्लिङ्गः अस्ति वा स्त्रीलिङ्गः अस्ति वा नपुंसकलिङ्गः अस्ति वा इति एतत् गतवान् एतत् पदं पश्यति किल गतवान् डस् डिपेण्ड् आन् द डेण्डे आफ् द कर्तृपदम् बट् फार् क्रियापदं दट् डजन्ट् म्याटर् फार् क्रियापदम् इट् ओन्लि केर्स् अबौट् वचनम् इफ् यु हाव् लैक् सः गच्छति वेदर् इट् इस् सः सा और् तत् गच्छति डजन् चेञ्ज्
लकारः इट् डस् नाट् म्याटर् बट् इन् भूतकालम् इट् म्याटर्स्
न न नाट् दट् इट् म्याटर्स् इन् भूतकालं वि सिङ्ग् दट् दिस् इस् अ this is a noun because it is not acting like a kriya padam
but gatavan is kriya padam only no
it is a noun it's a pratyaya mahodaya tavatu pratyaya
oh
this is what we discussed last week mahodaya so when you have the difference between a lakarah and pratyah that lakarah is a form of a verb but pratyah is a it is like an act of a verb but it is the form is a noun like gatavan is a noun
that is why it has gender associated with it
yes because kriyapadam doesn't have gender associated with it right if you have agachat there is no gender associated with it but if you have gatavan you are saying it is associated with pullinga right astu so this is what we did last week okay so idani tatra kita sopane vayam asti ityasya vayam पठामः अस्तु तत्र अस्ति इत्यस्य केवलं लङ्लकाररूपमेव अस्ति तत्र लङ्लकाररूपम् आसीत् इति वयम् एतत् आसीत् इति वयं वदामः किल तत्र तत् लङ्लकाररूपम् अस्ति अस्ति इत्यस्य तावत् प्रत्ययस्य रूपं नास्ति so asti only has a lang lakara form it does not have a tavatu pratyaya form
so verbs have the tavatu pratyaya or kriya padam has the tavatu pratyaya
for asti it doesn't have the lang lakara but if you want to use something like that you have bhavati Bhavati has a kravata pratyaya form, so you can use that. But asti only has a langlakara form.
So that's what? So these forms are associated with the kriyapadam root or?
The pratyaya is associated with the lakaraha, but the form of the pratyaya is not a kriyapadam.
So that is not Kriya Padam, but it is associated with the Dhatu, is it?
No, okay. So to get the form of the Pratyaya Mahavya, you are taking the root of the Dhatu and you are doing something to it to get the form.
So the, with the Dhatu, and Dhatu only is transformed into this.
Okay. Like Pat means the Dhatu, Patitavan is the Tavatu.
Pat Dhatu is the Patitavan, iti Bhavati.
The Kriya Padam form will be a Pat, right?
Asso, Idani. एकनिमिष अहं गीतासोपानं अत्र गीतासोपाने अस्ति किं कुर्वत सञ्जय इति अत्र दाता भगिनी भवती वाक्यद्वयं अत्र वयं केवलं भूतकाल अस्तातोः भूतकालः पठामः अस्तात् एव अत्र पठामः तस्य अनन्तरं वयम् अन्यान् वयं पश्यामः एकांशः दृश्यते वा
दृश्यते
क्षम्यताम् अस्तु राधा भगिनी पाके पठति वा
राधा भगिनी यु आर् ऑन म्यूट
ऐ रेड् इट् ऑन म्यूट सॉरी उच्चैः पठतः जानीत च भूतकालः अस् धातुः एषः अर्जुनः अस्ति अज्ञातवासे एषः बृहन्नला आसीत् एषा द्रौपदी अस्ति अज्ञातवासे एषा सैरन्ध्री आसीत्
अत्र सरयतु अत्र अर्जुनस्य विषये एषः अर्जुनः अस्तु एतत् वर्तमानकालः अनन्तरं एषा बृहन्नला अज्ञातवासे अर्जुनः बृहन्नला आसीत् अस्तु एषा द्रौपदी अस्ति अस्तु एषा द्रौपदी अज्ञातवासे एषा सैरन्ध्री आसीत् इदानीं नास्ति एषा द्रौपदी एव अस्ति सा सैरन्ध्री आसीत् इदानीं द्रौपदी अस्ति अस्तु अत्र कथम् एषा वदन्ति एषा द्रौपदी अस्ति अज्ञातवासे एषा सैरन्ध्री आसीत् एतान् वाक्यं
युधिष्ठिरः अज्ञातवासे एषः कङ्कः आसीत्
एषः युधिष्ठिरः
युधिष्ठिरः अज्ञातवासे युधिष्ठिरः कङ्कः आसीत् एषः भीमः अस्ति भीमः अज्ञातवासे पल्लवः आसीत् एषः नकुलः अस्ति अज्ञातवासे नकुलः ग्रन्थिकः आसीत् एषः सहदेवः अज्ञातवासे सहदेवः दन्तिपालः आसीत् अस्तु धातोः रूपाणि वर्तमानकाले भूतकाले वर्तमानकाले
एकनिमिषः वर्तमानकालः राधाभगिनी पठतु भूतकालः गोपालमूर्ति
अस्तु भगिनि वर्तमानकाले एकवचनं प्रथमपुरुषः अस्ति द्विवचनं प्रथमपुरुषः स्तः बहुवचनं प्रथमपुरुषः सन्ति गोपाल् महोदय यु केन् रीड्
भूतकाले प्रथमपुरुषः आसीत् आसाम् आसन् मध्यमपुरुषः आसीः आस्तम् आस्ता उत्तमपुरुषः आसम् आस्व आस्म
ऐ डिण्ट् रीड् द रेस्ट् आफ् इट् ऐ रीड् इट् मध्यमपुरुषः असि स्तः स्थ उत्तमपुरुषः अस्मि स्वः स्मः
समीचीनम् अस्तु इदानीं तत्र वयं सम्भाषणं कुर्मः चेत् उपयोगम् आसीत् आसम् आसीत् आसन् आसम् आस्म इति वयं पुनः पुनः वयं वदामः सम्भाषणं कुर्मः चेत् परन्तु आस्ताम् आसीः आस्तम् आस्तास्व तत् वदामः परन्तु एतत् पुनः पुनः वयं वदामः अस्तु तत्र आसीत् आसन् आसम् आस्म एतत् वयं सम्यक् जानीमः चेत् सम्भाषणं भवति अस्तु इदानीम् अभ्यासः एकवचनं द्विवचनं भवति अस्तु राधाभगिनी भवती प्रथमपुरुषः पठतु मध्यमपुरुषः करोतु गोपाल् महोदय भवान् उत्तमपुरुषः करोतु
प्रथम एव मध्यमपुरुषः
टेबल् प्रीवियस् पेज् डौन्
एकवचनं प्रथमपुरुषः सः वाक्पटुः आसीत् द्विवचनं तौ वाक्पटू आस्ताम् बहुवचनं ते वाक्पटवः आसन् मध्यमपुरुषः त्वम् आसीः युवाम् आस्तम् यूयम् आस्त गोपाल् महोदय श्रीड् उत्तमपुरुष
वन् सेकेण्ड् भगिनि आसीत् आस्ताम् आसन् आसीत्
भगिनी जस्ट् लैक् इन् भूतकाल सम्भाषणम् आसीत् आसन् आसन् आस्म इन् वर्तमानकाले आल्सो सेम् थिङ्ग् होल्स् गुड् अस्ति सन्ति अस्मि स्म
sure that you know those words. Of course, you should know all nine, but when you are doing sambhashanam, if you know these four, it will be very easy.
Ha.
So, asti, santi, asmi, smaha.
आसीत् आसम् अस्ति अस्मि विदो सन्ति स्मः आसन् आसम् अहं वाक्पटुः 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 अहं वाक्पटुः आसम् आवां वाक्पट् नो दट् फार्म् इस् आल्सो चेञ्जिङ्ग् वाक्पटुः वाक्पटु वाक्पटवः So which form is that following, Bhagini?
Ek vachanam, divachanam, bahuvachanam.
Avam, vakpatu, asva. Vayam, vakpatavaha, asma.
Samichin, asva. वाक्यानि पश्यन्तु अत्र युधिष्ठिरः नगरं गच्छति युधिष्ठिरः नगरं गतवान् अस्तु अत्र युधिष्ठिरनगरं सः गच्छति इदानीं सः गच्छति युधिष्ठिरनगरं गतवान् सः गतवान् इदानीम् अत्र अस्ति अथवा सः गतवान् तत्र नगरे एव सः अस्ति सः नगरं गतवान् अत्र युधिष्ठिरः इति अस्ति किल तत्र युधिष्ठिरः नगरं गच्छति तत् अत्र सः वाक्पटुः आसीत् इति वयं एकवचने द्विवचने अपि बहुवचने कृतवन्तः किल तत् अनुसृत्य एतानि वाक्यानि अपि कुर्वन्तु भूतकाले एव वर्तमानकाले न भूतकाले कुर्वन्तु यथा युधिष्ठिरः नगरं गच्छति किल युधिष्ठिरः नगरं गतवान् युधिष्ठिरौ नगरौ गतवन्तौ युधिष्ठिराः नगराणि गतवन्तः अस्तु
भगिनि
अस्तु राधाभगिनी भवती प्रथमं करोतु दुर्योधनः
दुर्योधनः अपि नगरं गच्छति भूतकाले दुर्योधनः अपि नगरं गतवान् दट् इस् प्रथम पुरुषः एकवचनं प्रथमपुरुषः द्विवचनं दुर्योधनौ अपि नगरौ गतवन्तौ बहुवचनं दुर्योधनाः गतवन्तानि
भगिनि योर् आडियो इस् वेरि
इस् इट् करेक्ट् भगिनि
वट् यु सेड् वास् करेक्ट् भगिनि बट् योर् आडियो इस् वेरि लो
मैनस् आर् द मेक्स् भगिनि दट्स् आल् ऐ केन्
नौ इट् इस् ओके
नौ दुर्योधनः अपि नगरं गतवान् दुर्योधनौ अपि नगरे गतवान् गतवन्तौ दुर्योधनाः अपि नगराणि गतवन्तः इस् दट् ओके भगिनि
आमाम् इदानीं भवान् तौ सर्वान् दुर्योधनः इति राधाभगिनी कृतवती
वाट् शुड् ऐ से भगिनि
न न भवती सम्यक् एव उक्तवती भगिनि. तदानीं गोपाल् महोदय, भवान् आं तत्र तौ सर्वान् नगरजनान् पश्यतः इति करोतु.
तौ सर्वान् नगरजनान् पश्यतः. तौ सर्वान् नगरजनान् दृष्टवन्तौ. सो इट् इस् पश्यतः दृष्टवान् दृष्टवन्तौ दृष्टवन्तः. दिस् इस् इन् तौ फार्म्
द्विवचन
द्विवचनं. सो ते सो विषये एकवचनं ते सः सर्वान् नगरजनान् दृष्टवान् अन्तौ ते सर्वान् नगरजनान् दृष्टवन्तः.
समीचीनं.
सम्यक् वा?
सम्यक् महोदय, सम्यक् महोदय. अस्तु, अनन्तरं राधा भगिनी, तौ सर्वे इति
तौ सर्वे मिलतः तौ सर्वे मिलितवन्तौ. सः सर्वे मिलितवान् तौ सर्वे मिलितवन्तौ ते सर्वे मिलितवन्तः.
समीचीनम्. अस्तु, अनन्तरं युधिष्ठिरः इति
अहं करोमि वा गोपाल् महोदय?
गोपाल् महोदय,
युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति. युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान्. युधिष्ठिरौ एकमपि दुर्जनं न एकमपि किमिन्से दुर्जनौ प्राप्तवन्तौ. तदुम् एकमपि हौ दुर्जनौ?
यु काण्ट् यूस् एकमपि देन् महोदय. एकमपि इस् ओन्ली फार् वन् दुर्जनं.
दुर्जनं न प्राप्नोति
युधिष्ठिरः एक ऐ मीन् दुर्जनौ न प्राप्तवन्तौ. युधिष्ठिरः दुर्जनान् न प्राप्तवन्तः.
युधिष्ठिराः इति वक्तव्यं.
युधिष्ठिराः युधिष्ठिराः दुर्जनाः. युधिष्ठिरौ दुर्जनौ न प्राप्तवन्तौ. युधिष्ठिराः दुर्जनान् न प्राप्तवन्तः.
समीचीनम्.
यथा दृष्टिः अस्ति तथा दर्शनम्. यथा दृष्टि आसीत् तथा दर्शनम्. यथा दृष्टि आस्तां तथा तथा दर्श हौ डु ऐ से दट् भगिनी? द्विवचनं. यथा दृष्टि आस्तां तथा दर्शनं.
दृष्टिः अस्ति तथा दर्शनं. एतत् न कर्तुं शक्नुमः. एव वयं स्वीकुर्मः. अस्तु, इदानीं सैरन्ध्री सेविका अस्ति. एतत् भवती वचनानि करोतु. अस्तु,
Who has to do, Bhagini?
Bhagi eva karotu. Sairendri.
Sairendri sevika asti. Sairendri sevika asit. Sairendre nadi nadyau. Sairendrau sevikau astam. Sairendryah sevikaah asan.
Nadi nadyau nadyah na sairendri sairendrau.
Yeah, I finished that. Sairendri sairendrau sairendryah asan. Sevika, sevike, sevikaah. Asit, astam, asan.
Idanim Gopal Mahodaya bhavan karotu.
Sa ragnim sevate. Sa ragnim sevitavati. So it is sahatavate. Te ragmyau sevitavati sevitavatau te ragmyau sevitavatau taha nadi nadyau nadim nadyau nadyaha taah ragnyah sevitavati sevitavantah
no sevitavatyah no
sevitavatyah sevitavatyah
sevitavatyah
Nadim Nadyo Nadyaha. So Taha Ragnyaha Sevita Vatyaha.
Sakesha Prasadhanam Karoti.
Sakesha Prasadhanam Karoti. सा केशप्रसादनं कृतवती ते केशप्रसाद नौ कृतवतौ सा ते ता केशप्रसादानि कृतवत्यः इज़ इट् करेक्ट् भगिनि
प्रसादनं नपुंसकलिङ्गम् अस्ति वा
प्रसादनम् इति अहं चिन्तयामि
केशप्रसादनं वाट् लिङ्गम् इस् इट्
प्रसादनम् इस् नपुंसकलिङ्गम्
नपुंसकलिङ्गम्
हा सो फलं फले फलानि सो प्रसादनं प्रसादने प्रसादनानि
कोपर् महोदय किं
सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती ते प्रतिफले न इष्टवतौ नद्यौ इष्टवत्यौ और इष्टवतौ
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 इष्टवत्यौ भगिनि
आम्
नद्यौ न इष्टवती इष्टवत्यौ ते प्रतिफले न इष्टवत्यौ ताः प्रतिफलानि न इष्टवत्यः
सा नम्रतया तिष्ठति सा नम्रतया स्थितवती ते नम्रतया स्थितवत्यौ स्थितवत्यौ ताः नम्रतया स्थितवत्यः
समीचीनम् अस्तु अनन्तरं गोपाल् महोदय भवतु
देशभक्तिगानं गायसि त्वं देशभक्तिगीतं गतवती गीतवती गीतवती त्वं देशभक्तिगीतं गीतवती युवां गीतं गीते युवां देशभक्तिगीते गीतवत्यौ
समीचीनम्
देशभक्तिगीतानि गीतवत्यः
युवां सर्वदा सत्यं वदथ युवां सर्वदा सत्यम् उक्तवन्तौ त्वं सर्वदा सत्यम् उक्तवती युवां सर्वदा सत्यम् उक्तवन्तौ यूयं सर्वदा सत्यम् उक्तवथ इस् इट् करेक्ट् भगिनि उक्तवत
आं भगिनि
गोपाल्
यूयं भजद्वे यूयं भक्तवन्तः
आत्मनेपदीरूपं
वाट् इस् द मीनिङ्ग् यूयं भक्तवन्तः
एतद् वयं वचनं न कुर्मः वयं भजत् यूयं भजद्वे तस्य आत्मनेपदि क्रियापदस्य भूतकालम् एतत् इदानीं वयं न कुर्मः अपि अहं भुञ्जे अहं भवान् प्रथमतया वयं परस्मैपदि धातूनां भूतकालं अत्र प्रश्नाः सन्ति वा
सो द लास्ट् टु यु आर् लिविङ्ग् नौ भगिनि
किं महोदय
दट् लास्ट् टु यु आर् लिविङ्ग् नौ
आम्
ओके
लिङ्गे क्तवतु रूपाणि वयम् अत्र क्तवतु रूपाणि एव पठामः इदानीं तस्य अनन्तरं वयं लङ्लकारस्य विषये ते कुर्वन्ति अस्तु अत्र तावत् कथयान्तरूपं पुल्लिङ्गे तत्र लट्लकाररूपमस्ति एकवचनं द्विवचनं बहुवचनम् अस्तु सर्वे द्वौ द्वौ कुर्वन्तु अस्तु
What did you say, Magini? Can you repeat?
Both of you do two each.
Two, two we have to do.
Patati, पठितवान् पठितवन्तौ पठितवन्तः इच्छति इष्टवान् इष्टवन्तौ इष्टवन्तः
करोति पठतु
करोति पठतु
पठतु रीड् कृतवान्
कृतवान्
कृतवन्तौ
कृतवन्तौ
कृतवन्तः
कृतवन्तः
गायति
गायति
गीतवान्
गीतवान्
गीतवन्तौ
गीतवन्तौ
गीतवन्तः
गीतवन्तः
धरति धृतवान् धृतवन्तौ धृतवन्तः भजति भक्तवान् भक्तवन्तौ भक्तवन्तः
भजति फार्म् इस् भक्तवान् भक्तवन्तौ
या देव गिवन् बहुवचनम् भक्तवन्तः स्वच्छति भक्तवान् भक्तवन्तौ
रूपं न क्रीडति क्रीडितवान् क्रीडितवन्तौ
क्रीडितवन्तौ
क्रीडितवन्तः
क्रीडितवन्तः
नयति नीतवान् नीतवन्तौ
नीतवन्तौ
नीतवन्तः
नीतवन्तः
गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः भ्रमति भ्रमितवान् भ्रमितवन्तौ भ्रमितवन्तः
भगिनी
अपि स्क्रोल् डौन्
गर्जति न भ्रमति
शृणोति इस् वाट् यु टु महोदय
शृणोति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः तपति तप्तवान् तप्तवन्तौ तप्तवन्तः
बोधयति बोधितवान् बोधितवन्तौ बोधितवन्तः भगिनी तत्र बोधितवन्तौ और् बोधितौ
बोधितवान् बोधितवन्तौ बोधितवन्तः
बोधितवन्तौ ओन्लि
आम्
लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः
हसति हसितवान् हसितवन्तौ हसितवन्तः नमति नमति नतवान् नतवान् नतवन्तौ नतवन्तः
ददाति दत्तवान् दत्तवन्तौ ददत्
This
one I remember this from the old this thing Bhagini thought that ददत् is the form she said पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः
ब्रूते उक्तवान् उक्तवन्तौ उक्तवन्तः ईक्षते ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः
लभते लब्धवान् लब्धवन्तौ लब्धवन्तः आस्ते आसितवान् आसितवन्तौ आसितवन्तः
युध्यते युद्धवान् युद्धवन्तौ युद्धवन्तः
एतत् स्त्रीलिङ्गः अस्ति अतः तत्रूपं स्त्रीलिङ्गे
तव तु प्रत्यय
तव तु
इदानीं स्त्रीलिङ्गे
पुल्लिङ्गे वयम् इदानीं कृतवन्तः इदानीं स्त्रीलिङ्गे
गोपाल् महोदय यु किं कण्टिन्यू
पिबति पीतवती पीतवत्यौ पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः
वदति उदितवती ओ दिस् इस् डिफरेण्ट् उदितवती उदितवत्यौ उदितवत्यः पश्यति दृष्टवती दृष्टवत्यौ दृष्टवत्यः
गच्छति गतवती गतवत्यौ गतवत्यः क्षिपति क्षिप्तवत्यः क्षिपति क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः
ओके जपति जपितवती जपितवत्यौ जपितवत्यः नयति नीतवती नीतवत्यौ नीतवत्यः
तिष्ठति स्थितवती स्थितवत्यौ स्थितवत्यः कूजति कूजितवती कूजितवत्यौ कूजितवत्यः
पृच्छति पृष्टवती पृष्टवत्यौ पृष्टवत्यः कथयति कथितवती कथितवत्यौ कथितवत्यः
हौ यु आर् सीङ्ग् भगिनि ऐ काण्ट् सी एनिथिङ्ग्
शृणोति भगिनि यद् स्क्रोल् अप्
क्षम्यतां क्षम्यतां क्षम्यताम्
शृणोति महोदय
शृणोति श्रुतवती श्रुतवत्यौ श्रुतवत्यः हसति हसितवती हसितवत्यौ हसितवत्यः
चलति चलितवती चलितवत्यौ चलितवत्यः क्रीडति क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः
गायति गीतवती गीतवत्यौ गीतवत्यः तपति तप्तवती तप्तवत्यौ तप्तवत्यः
शेते शायितवती शायितवत्यौ शायितवत्यः जानीते ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः
शेते अर्थं किं भगिनि
स्लीप् शयनं करोति
शयनं करोति शेते शयितवती शयितवत्यौ शयितवत्यः ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः यतते यत्तवती यत्तवत्यौ यत्तवत्यः लभते लब्धवती लब्धवत्यौ लब्धवत्यः
समीचीनं
भगिनी तत्र यतते इत्युक्ते यत्नं करोति वा प्रयत्नं
यतते नाम
टु ट्रै इति अहं चिन्तयामि
यतते नाम आम् प्रयत्नं करोति एतत् गृहपाठरूपेण अहं ददामि
अस्तु भगिनि
एतत् कुर्मः
इच्छिबेज् भगिनि
किं महोदय फोर्त् वन् इस् ऐ गिव् देट् फोर् होम् वर्क् एण्ड् देन् नौ विल् डु द फिफ्त् वन्
रिक्तस्थानानि भवतु प्रत्ययान्तरूपैः पूरयत् दट् वन् भगिनि Should I start? How many should I do, Bhagini?
Do one each. Then everybody, there's 15, so we'll take turns. Each of us will do one.
Okay. Should I start? Aham ashramam gatavan.
Gopal Mohdi?
What we have to do, Bhagini?
Basically, take the Dhatu Mahodhya, the Dhatu is given here, and put it into Dhatu Pratyaya Rupa.
Dhatu Pratyaya. Tvam Tatra Kada
Gatavan.
Gatavan?
Can be Gatavan or Gatavati, right, Bhagini?
But so, usually we don't know the gender. So
it's not different.
Kim Mahodhya?
Tvam Rupam is not Gatavan or Gatavati or... Or is it Gatavati?
Oh, yes, Gatavan.
Huh?
Since it is Eka Vachanam, it will be Gatavan, Mahodhya.
ओके त्वं तत्र कदा गतवान् ओके
वयम् एकस्य वृद्धस्य जीवनकथां शृणोति इति अस्ति श्रुतवन्तः वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवन्तः राधा भगिनी
सः पूर्वं योगशास्त्रं पठितवान्
पूर्वं योगशास्त्रं पठितवान् तत्र निपुणतां प्राप्तवान्
समीचीनं
किन्तु जीवने तत्र आन् प्लस् आनीतवान्
किन्तु जीवने तत् न
आनीतवान्
आनीतवान् समीचीनं गोपाल् महोदय तेन दुःखं
तेन दुःखं प्राप्तवान्
कुत्रापि ज्ञानं न
दत्तवान्
दत्तवान् अनन्तरं युद्धाश्रमं गोपाल् महोदय
आगतवान्
आगतवान् किं त्वम् एतां घटनां
श्रुतवान्
श्रुतवान् यूयं तत्र
यूयं तत्र स्थापितवान्
हा धातु इति तिष्ठति
यूयं तत्र तिष्ठितवन्तौ त्वं युवां यूयं यूयं तत्र तिष्ठितवन्तः
तिष्ठवन्तः आवाम् एतस्मिन् विषये चिन्तनं
कृतवत्यौ
भगिनि आवां
कृतवत्यौ अथवा कृतवन्तौ
पुल्लिङ्गं सो इट् इस् कृतवन्तौ
हौ डु यु से पुल्लिङ्गं आवां केन् बि स्त्रीलिङ्गम् आर् पुल्लिङ्गं महोदय वि प्लूरल् केन् बि स्त्रीलिङ्गं
इट् इस् वि टु वयं जीवने योगशास्त्रं चर वयं जीवने योगशास्त्रं आचरणं चरणं
द्विवचनं
अहम् आवां वयं सो इट् इस् चर
बहुवचनरूपं
वयं न अहम् आवां वयं प्लूरल्
अस्तु महोदय
बहुवचनम् आश्रितवन्तः वा
आचरितवन्तः वत्यः द्वयमपि
आचरतु आचरितवन्तः
वत्यः अपि सम्यक् हि साधु अस्ति किल किं भगिनि अत्र स्त्रीलिङ्गः अस्ति वा पुल्लिङ्गः अस्ति वा इति न जानीमः आचरितवन्तः अथवा आचरितवत्यः
द्वयमपि वक्तुं शक्यते
वक्तुं शक्यते
कुरुक्षेत्रे कौरवपाण्डवाः कौरवपाण्डवाः बहुवचनं युद्धवन् युध्यते और् युध्यवन्तः ऐ डोण्ट् नो विच् वन् इस् रैट्
योजितवन्तः
वा इति क्रियापदम् युद्ध इस् द क्रियापदं भगिनि सोरि युध्यते सो हिबि युद्धवान् युद्धवन्तौ युद्धवन्तः
युद्धवन्तः
अनन्तरम् अर्जुनः सैन्यं
दृष्टवान् ईक्ष्य दृष्टवान्
नो ईक्षितवान् आल्सो वि किं से नो
अर्जुनः सैन्यम् ईक्षितवान् षट् पश्य पश्य दृष्टवान् ईक्षितवान्
बट् मीनिङ्ग् वैस् बोत् आर् द सेम् रैट् पश्य एण्ड् ईक्ष
आम् आम् पश्य नीक्ष अस्तु अत्र अद्य स्थगयामः अहं ध्वनिमुद्रां प्रेषयामि अस्तु प्रश्नाः सन्ति वा
नास्ति भगिनि
धन्यवादः नमस्कारः पुनर्मिलामः
पुनर्मिलामः